अथ सप्तमोऽध्याय श्री भगवान उवाच मज्जा सप्तमना पार्थ योगं जिञ्जन मदाश्रय असंशयं समग्रं मां यथा ज्ञास्वसि तच्छिनु ज्ञानं तेहं सविज्ञान मिदं भक्ष्यं अशेषत यज्ज्ञात्वा नेह भूयोन्याय ज्ञातव्यमवशिष्यते मनुष्यानां सहस्रेषु कश्चिद् यतति सिद्धये यततामपि सिद्धानां कश्चिन् मां अवेतिता ततः भूमिरापो नलोवायो खङ्गमनो बुद्धिरेव च अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे परां जीवभूतं महाबाहो ययेदं धार्यते जगद् एतदयोनीनि भूतानि सर्वाणि त्वपधारय अहं कृष्णस्य जगत प्रभवप्रलयस्तथा मत्तः परतरङ्ग नान्यद् किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोतं सूत्रे मणिगणाय रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो प्रणवः सर्ववेदेषु शब्दक्षे पौरुषमनिषु पुण्यौ गन्ध्यः पृथिव्याञ्च तेजश्चास्मि विभावसौ जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु बीजं मं सर्वभूतानां विद्धि पार्थ सनातनं बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहं बलं बलवतामस्मि कामरागविवर्जितं धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभं ये चैव सात्विका भावा राजसास्तामसास्य ये मत्ता ये वेति तान् विद्धि न त्वहं तेषु ते मयि त्रिभिर्गुणमयैर्भावै रेभिः सर्वमिदं जगत् मोहितं नाभिजानाति मामिभ्य परमवयं दैविध्येषा गुणमयी मम माया दुरत्तया मामेव ये प्रपद्यन्ते मायामेतं तरन्ति ते न मां दुष्कृतिनो मूढा प्रपद्यन्ते नराधमा मायापहृतज्ञाना आशुराङ्गभावमाश्रिता चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुना आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थ महं स च मम प्रिय उदारः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् आस्थितः स हि युक्तात्मा मामे मानुत्तमं गतिं बहुनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वमिति स महात्मा सुदुर्लभः कामैस्त्वैस्त्वैर्हृतज्ञानः प्रपद्यन्तेऽन्यदेवता तं तं नियममास्थाय प्रकृत्या नियता स्वयं यो यो यं यं तनुं भक्तः श्रद्धया रचितुमिच्छति तस्य तस्याचलं श्रद्धां तामेव विदधाम्यहं स्वतया श्रद्धया युक्ता तस्याराधनमीहते लभते च ततः कामान् मयैव विहितान् हितान् अन्तवत्तु फलं तेषां तद्भवत्तल्पमेधसं देवान् देवजयो यान्ति मदभक्ता यान्ति मामपि अव्यक्तं भक्तिमापन्नं मन्नन्ते मामबुद्धय परं भावमजानन्तु ममाव्ययमनुत्तमं नाहं प्रकाशशरवश्य योगमाया समावृतः मूढोऽयं नाभिजानाति लोको मामजमव्ययं वेदाहं समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मान्तु वेद न कश्चन इच्छद्देशसमुत्थेन दन्दमोहेन भारत सर्वभूतानि सम्मोहं स्वर्गे जान्ति परन्तप येषां तन्तगतं पापं जनानां पूर्णाकर्मणां ते दन्दमोहनिर्मुक्ता भजन्ते मां दृढव्रता जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ते ब्रह्मा तद्विदुः कृष्ण मध्यात्मं कर्म चाखिलं साधिभूतादिदैवं मां साधियज्ञं च ये विदुः प्रयाणकालेऽपि च मां ते विदुः चेतसा इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयुगो नाम सप्तमोऽध्यायः।